सर्वेषां नमस्कारः। अस्मिन् वर्गे स्वागतम्। गतवर्गे वयं द्वितीयविभक्तिविषये वयं चर्चितवन्तः। अद्यापि तद्विषये एव वयं पठामः। तस्य विषये एव अद्यापि तस्मिन् विषये एव वयं पठामः। अस्तु, प्रथमतया गृहपाठ परिशीलयामः वा? अस्तु, अहं स्क्रीन् शेर् करोमि। अस्तु, दृश्यते वा यदहं शेर् करोमि तद् दृश्यते वा?
आं भगिनि,
समीचीनं। अस्तु, अस्तु, प्रत्ययः नाम किम्? आङ्ग्लभाषायामपि वदन्तु सर्वे। कोऽपि वदति कः सविता भगिनी वदति?
आं भगिनि, प्रत्यय नाम सफिक्स्।
समीचीनं।
ओके,
अस्तु, के प्रत्ययाः भवती जानाति? कान् प्रत्ययान् भवती जानाति?
क्षम्यतां भगिनि, ऐ हेव् रिटन् प्रत्ययः क्रियापदस्य अन्तिमवर्णः भवति, इट् ओके?
अन्तिमवर्णः भवति प्रत्ययः नाम टु हेव् अ रैट् ग्रामाटिकल् डेफिनिशन् इट् विल् बि डिफ्रेण्ट् भगिनि, बट् जस्ट् फार् अण्डर्स्टाण्डिङ्ग् ऐ हेड् गिवन् दिस् क्वश्चन्। अन्तिमवर्णः इति न वदामः साधारणतया।
क्रियापदस्य अन्ते उपयोगं करणीयम्।
अन्ते उपयोगं करणीयम्, आम् आम्, प्रत्ययः अन्ते उपयोगं करणीयम्, अन्तिमवर्णः इति न भवति।
भगिनि, वी केन् से यः शब्दस्य अन्ते योज्यते सः प्रत्ययः।
बहु समीचीनम्, आम्, तत् सत्यम्, आम्।
ओके, बट् ओन्ली वित् द वर्ब् ओन्ली, नो, वी यूस् द प्रत्यय।
आम् 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 आम्,
सत्यम्। सो वी हैव टु स्पेसिफाई दैट आल्सो, नो, लाइक क्रियापद पदस्य अन्ते।
प्रगति भगिनी पुनः वदति वा एकवारं भवत्याः उत्तरम्?
ऐ सेड् यः शब्दस्य अन्ते योज्यते सः प्रत्ययः।
भवती अत्र समीकरोतु, यः क्रियापदस्य अन्ते।
क्रियापदस्य अन्ते, ओके, धन्यवादः।
तत् समीचीनम्, आम्, नामपदस्य अन्ते न उपयोगं कुर्मः किल, क्रियापदस्य अन्ते एव उपयोगं कुर्मः, अतः तत् समीचीनं भवति।
आम्,
एकनिमिषः, ऐ थिङ्क् ऐ एम् एबल् टु हियर् सम्बडि एल्स् वाय्स्। ओके, या, थेङ्क् यू सविता भगिनी, धन्यवादः, थेङ्क् यू वेरि मच्। राधिका भगिनी इदानीं शृणोति वा?
आं भगिनि,
ध्वनिः सम्यक् अस्ति वा?
ध्वनिः सम्यक् अस्ति,
धन्यवादः सूचनार्थं,
धन्यवादः।
अस्तु, तत् समीचीनम्। अस्तु, वयं कान् प्रत्ययान् वर्गे पठितवन्तः। मधु भगिनी वदति वा?
भगिनि,
वयं कान् प्रत्ययान् वर्गे पठितवन्तः गतवर्गे? तस्य नाम एव वदन्तु, वदतु।
लेबन्तप्रत्ययो,
चिन्ता मास्तु, चिन्ता मास्तु, सावधानेन चिन्तनं करोतु। अत्र विभक्तिवलयं पुस्तकमपि अस्ति। अस्तु, समीचीनं, धन्यवादः भगिनि। अस्तु, राधिका भगिनी वदति वा पुनः एकवारम् एतत् पद प्रश्नस्य उत्तरम्?
त्वान्तप्रत्ययः, लेबन्तप्रत्ययः, सुमुनन्तप्रत्ययः, तवत्सुप्रत्ययः वयं पठितवन्तः।
आम् आम् गतवर्गे नूतन विषयः नूतनप्रत्ययः अपि वयं पठितवन्तः
शत्रन्तप्रत्ययः
आम् कुत्र अस्ति एतत् विषयः
द्वितीयाविभक्ति द्विधविभक्ते उपयोगं कुर्मः
आम् अस्तु सर्वे एतत् दृश्यते वा अहं किं शेर् करोमि तत् दृश्यते वा एकनिमिषः आम् अहं इदानीं समीचीनमस्ति वा
आं भगिनि धन्यवादः
अस्तु अत्र पश्यतु मम अस्तु चत्वारि वाक्यानि सन्ति किल प्रथमतया रामः पाठं पठित्वा बालकः हस्तं प्रक्षाल्य चत्वारि वाक्यानि अस्ति किल तस्य अनन्तरं सर्वे पश्यन्तु एतेषु वाक्येषु चतुरस्रचिह्ने नाम चतुरस्र नाम स्क्वेर् आर् रेक्टाङ्गल् चतुरस्रचिह्नेन क्रमशः त्वाप्रत्ययः त्वान्तमिति वदामः ल्यबन्तं तुमुनन्तं शत्रन्तम् इति अस्ति किल तदेव अहं पृष्टवती अस्तु मधु भगिनी पुनः एकवारं वदति वा वयं कान् प्रत्ययान् वर्गे पठितवन्तः
वयं क्वान्तप्रत्यय लबन्तप्रत्यय तुमुनन्तप्रत्यय शत्रुन्तं प्रत्यय गतवर्गे पठितवन्तः
बहु समीचीनं प्रत्ययाः वयं पठितवन्तः
तव तु आल्सो न मेडम्
आम् पूर्वे वयं पठितवन्तः अहम् अस्तु भगिनि तव तु अपि अस्ति परन्तु गतवर्गे वयं तव तु विषये वयं न कृतवन्तः गतवर्गे परन्तु वर्गे वयं पठितवन्तः तव तु विषये अपि आम् पठितवान् खादितवान् लिखितवान् इति अस्ति किल तद् अपि प्रत्ययः भवति तव तु प्रत्ययः तस्य नाम अस्तु तेषां नाम उदाहरणम् अपि लिखन्तु इति अहं मम प्रश्नः आसीत् गृहपाठरूपेण आसीत् अस्तु पद्मिनी भगिनि
आं भगिनि
त्वान्तरूप त्वाप्रत्ययः विषये उदाहरणं
भवती विषयं ज्ञात्वा अग्रे पठतु
अत्र कुत्र अस्ति त्वाप्रत्ययः
ज्ञात्वा
अस्तु पुनः अन्य उदाहरणमपि दातुं शक्नोति वा अस्तु चिन्ता मास्तु भगिनि अन्य कोऽपि वदति वा माधवी भगिनी वदति वा त्वा प्रत्ययः एकनिमिषः पद्मिनी भगिनी प्रयत्नं करोतु
रामः गृहं गत्वा पाठं पठति
आं समीचीनम् अत्र त्वा प्रत्ययः कुत्र अस्ति
गत्वा
समीचीनम् अस्तु धन्यवादः भगिनी
धन्यवादः
माधवी भगिनि ल्यप् प्रत्यय विषये उदाहरणं ददति वा
बालकः गृहम् आगत्य क्रीडति
समीचीनम् अत्र एतस्मिन् वाक्ये कुत्र अस्ति ल्यप् प्रत्ययः
आगत्य
किमर्थम् आगत्य किमर्थं न आगत्वा इति अस्ति
प्रिफिक्स् अस्ति अतः ल्यप् प्रत्ययः योजयामः
बहु समीचीनं समीचीनम् अन्य उदाहरणमपि वदति वा अहं पृच्छामि उपविशति इति क्रियापदमस्ति किल तस्य ल्यप्
उपविश्य
किमर्थम्
उप प्रिफिक्स् अस्ति अतः उपविश्य इति भवति
अस्तु तद् तस्य तत् अत्र कीदृशप्रत्ययः उपयोगं कुर्मः
ल्यप् प्रत्ययः
बहु समीचीनं अस्तु त्वा प्रत्ययः ल्यप् प्रत्ययः भेदः कः
द्वे द्वौ अपि समान एव
समानमेव समीचीनम् अर्थः समानमेव आम् रूपभेदः एव अस्ति अर्थभेदः समानमेव बहु समीचीनं भगिनि अर्थभेदः समानं सारि अर्थभेदः अर्थभेदः नास्ति आम् अस्तु प्रगति भगिनी तुमनन्तरूपं विषये एकम् उदाहरणं वदति वा
आम् अहं भगवद्गीता पठितुं मन्दिरं गच्छामि
अत्र कुत्र अस्ति तुमनन्तप्रत्ययः
हरि ओम्
आम् नमस्कारः भगिनि
हरि ओम्
आम् अहं शृणोमि
इस् इट् करेक्ट्
आम् समीचीनं समीचीनमस्ति मम प्रश्नः आसीत् अत्र तुमनन्तप्रत्ययः कुत्र अस्ति भगिनि प्रगति भगिनी न शृणोति वा प्रगति भगिनी अस्तु पद्मिनी भगिनी शृणोति वा
आं भगिनि
अस्तु क्लेशः अस्ति वा इति अहं न जानामि
अहमपि शृणोमि भगिनि
अस्तु समीचीनं समीचीनं धन्यवादः अस्तु अहं चिन्तयामि
शृणोमि
प्रगति भगिन्याः
क्लेशः
अस्ति इति अहं चिन्तयामि आम् आम् म्यूट् कृतवती आम् अस्तु आम् राधिका भगिनी वदति वा तुमनन्त
अहं भगवद्गीतां पठितुम् इच्छामि
अत्र तुमनन्त
पठितुं तुमनन्त
अर्थः कः
ऐ लैक् टु रीड् भगवद्गीता
किमर्थम् इति प्रश्नस्य उत्तरं भवति
किमर्थम्
छात्राः पाठं पठितुं विद्यालयं गच्छन्ति छात्राः कुत्र गच्छन्ति
छात्राः पठितुं पाठशालां गच्छन्ति
मम प्रश्नः अस्ति छात्राः कुत्र गच्छन्ति
छात्राः पाठशालां गच्छन्ति पठितुं पठितुं पाठशालां गच्छन्ति
मम प्रश्नः अस्ति छात्राः कुत्र गच्छन्ति केवलं मम प्रश्नः कुत्र एव
पाठशालां गच्छन्ति
आम् तदेव उत्तरं छात्राः वाक्यमस्ति छात्राः पाठं पठितुं विद्यालयं गच्छन्ति इति वाक्यमस्ति एतत् वाक्यं स्वीकरोतु मनसि अनन्तरं मम प्रश्नः अस्ति छात्राः कुत्र गच्छन्ति
छात्राः विद्यालयं गच्छन्ति
समीचीनं छात्राः किमर्थं विद्यालयं गच्छन्ति?
छात्राः पठितुं विद्यालयं गच्छन्ति.
तुमनन्तप्रत्ययः कुत्र आवश्यकं प्रयोगः भवति चेत्, प्रश्नः अस्ति चेत्, यत्र यत्र किमर्थम् इति प्रश्नः अस्ति तत्र तुमनन्तप्रत्ययः उपयोगं कुर्मः. अवगच्छति वा? समीचीनं समीचीनम् अस्तु. पद्मिनी भगिनी.
आं भगिनि.
आं, शत्रन्तरूपविषये उदाहरणं. अत्र यत्र द्वितीयपुटसङ्ख्या अस्ति किल विभक्तिवलरीपुस्तके, तत्र चतुर्थवाक्यानि एव पठतु, वाक्यमेव पठतु कृपया.
बालिका पाठं पठन्ती एव निद्रां कृतवती.
समीचीनम्. आम्, क्रियाद्वयं समानसमये एव भवति. पुनः वदतु कृपया.
क्रिया क्रियाद्वयं समानसमयमेव भवति.
समानसमये.
समानसमये भवति.
आम्, क्रियाद्वयं समानसमये भवति. तत्र शत्रन्त प्रत्ययः, शत्रन्तप्रत्ययः उपयोगं कुर्मः. अस्तु, अत्र अस्तु, तदेव शत्रुप्रत्ययः उदाहरणम् अस्तु. मम प्रश्नः, अत्र बालिका पाठं पठन्ती एव निद्रां कृतवती, अत्र क्रियाद्वयम् अस्ति वा?
पठन्ति, निद्रां कृतवती.
कृतवती केवलं
पठन्ति, कृतवती क्रियाद्वयम्.
आम्, समीचीनं समीचीनं.
सन्ति
अस्तु. अग्रे पठामः. एतेषां वाक्यानाम् अनुवादनं कुर्वन्तु. कृतवन्तः वा सर्वे? रविमहोदय, भवान् अस्ति वा महोदय? माधवी भगिनि.
नमस्कारः भगिनि.
नमस्कारः, स्वागतं भगिनि, स्वागतं.
He is in, just office call came.
चिन्ता मास्तु, चिन्ता मास्तु. भवती कर्तुं शक्नोति वा?
आं भगिनि, अहं कृतवती. ट्रान्स्लेशन् भगिनि. एतेषां वाक्यानाम् अनुवादं कुर्वन्तु. प्रथमवाक्यः, कृष्ण गोविन्द कृपया मम नवनीतं मा चोरयतु.
बहु समीचीनं, बहु समीचीनं. अग्रे,
कृपया लेखनीं ददाति वा?
कृपया लेखनीं ददाति वा? समीचीनं, बहु समीचीनं. अत्र प्रिया इति अस्ति किल?
आं भगिनि.
तद् कथं वदति? प्रिये, सम्बोधनरूपं.
ओ, आं भगिनि.
प्रिये, कृपया लेखनीं ददाति वा? समीचीनम्.
हौ टु चेञ्ज्?
चिन्ता
मास्तु. अग्रिम, नन्दिनी श्वः गृहप्रवेशार्थम् आगच्छति वा?
बहु समीचीनं, आगमिष्यति वा? बहु भविष्यत्कालम् आगमिष्यति वा? विल् यू कम्? फ्यूचर्
टेन्स्. आं भगिनि. दिस् वन्, एतत् वाक्यम् अहं न जानामि भगिनि. हे,
प्रयत्नं करोतु, अहं पश्यामः.
यु स्टाप् मेकिङ्ग् नाय्स्. हे यु, दिस् वन्
भवति, भवति स्त्रीलिङ्गशब्दं, भवति सम्बोधनरूपे,
भवती कोलाहलं मा करोतु.
आम् समीचीनं
कक्षायां कोलाहलं मा करोतु
बहु समीचीनं सत्यं
धन्यवादः
सत्यम्
अग्रिम पिता कृपया मम दशरूप्यकाणि ददाति वा दशरूप्यकं ददाति वा
अत्र डेड् मे हेव् $10 प्लीस् मे हेव् इति अस्ति किल दश डालराणि स्वीकराणि वा इति भवति स्वीकरवाणि वयं तादृश रूपं न पठितवन्तः स्वीकरवाणि वा इति लोट् लकार उत्तमपुरुष भवति वयं न पठितवन्तः समीचीनं समीचीनं भगिनि धन्यवादः भगिनि सम्यक्तया प्रयत्नं कृतवती
इच्छामि वा केन् वि इच्छामि समथिङ्ग् केन् वि रैट्
वाक्यं
रचयतु अहं दशरूप्यकाणि इच्छामि वा
इच्छामि
किल इच्छामि किल
इच्छामि नाम देन् केन् ऐ लैक् इट् इट् विल् बि लैक् दट् रैट्
ओके ओके
इच्छति नाम टु लैक् किल
ओके टु हाव् लैक् मे ऐ
हाव् स्वीकरोति वा इति
स्वीकरोति
सो द रैट् क्रियापदं विल् बि स्वीकरवाणि वा
स्वीकरवाणि वा
वि हाव् नाट् लर्न्ड् दट् पदं we have not learned that we have only learned in lotlaka rupam kripaya dadatu swikarotu tadusha rupam eva vayam patitavanta
okay
atra dhanyavad astu
shamitam shamitam madam pitaha kripaya mayam $10 dadatu
अत्र एतस्मिन् वाक्ये प्लीस् गिव् मी $10 इति अर्थे भवति किल अर्थः अस्ति किल अत्र वाक्यं भवति डेड् मे ऐ हेव् $10 अर्थः पुनः वदतु भगिनि
पितः कृपया मह्यं $10 ददातु
अस्तु समीचीनमेव अर्थः समानमेव भवति इति अहं चिन्तयामि आं भगिनि
हौ टु कन्स्ट्रक्ट् मेडम् दिस् वन् डाड् मै हेव् मह्यं
योर् आङ्ग्लभाषायाम् अनुवादं कुर्मः चेत् डाड् प्लीस् गिव् मी $10 इति अर्थे भवति मे ऐ हेव् इति अर्थः आवश्यकं भवति चेत् स्वीकरवाणि इति लोट्लकाररूपम् आवश्यकं भवति आम्
स्वीकरवाणि
आम् लोट्लकार उत्तमपुरुषरूपं भवति जनक अहं दश डालराणि स्वीकरवाणि वा जनक सम्बोधनरूपं जनक अहं $10 स्वीकरवाणि वा पिता शब्दस्य सम्बोधनं किं
पिता
ऋकारशब्दः
आम्
ऋकारान्तशब्दः मम मनसि सम्यक् नास्ति
भगिनि अभ्यासपुस्तके
पितः पितः एव अस्ति आम् समीचीनमेव
पितः मातः भ्रातः
पितः अहं $10 स्वीकरवाणि वा इति अपि वक्तुं शक्नोमि
स्वीकरवाणि वा
तदपि समीचीनम् प्रश्नाः सन्ति वा सर्वम् अवगच्छन्ति सर्वे अवगच्छन्ति वा एतत् पर्यन्तम् अस्तु अग्रे गच्छामः. माधवी भगिनी यदा रविमहोदय आगच्छति तदा सूचयतु
कृपया.
समीचीनम् अस्तु. अग्रे कः भागं बोढुं न अस्तु. मधु भगिनी
आं भगिनि
अत्र पठति वा प्रथमविभक्ति एकवचनं नगरी.
आम् सेकेण्ड् वर्ड् स्टार्ट् भगिनि
प्रथमम् अपि पठतु कृपया
प्रथमाविभक्ति एकवचनं नगरी. द्वितीयाविभक्ति एकवचनं नगरी. द्वितीयाविभक्ति बहुवचनं नगरीः.
नगरीः
नगरीः. पार्वती द्वितीयाविभक्ति एकवचनं पार्वतीं भवति. द्वितीयाविभक्ति बहुवचनं पार्वतीः भवति. काशी द्वितीयाविभक्ति एकवचनं काशीं भवति. द्वितीयाविभक्ति बहुवचनं काशीः भवति. मयूरी इति शब्दः द्वितीयाविभक्ति एकवचनं मयूरीं भवति. द्वितीयाविभक्ति बहुवचनं मयूरीः. देवी एकवचनं द्वितीयाविभक्ति देवीं भवति. द्वितीयाविभक्ति बहुवचनं देवीः भवति.
धन्यवादः. गतवर्गे अत्रैव किञ्चित् कठिनः आसीत् किल, अतः एव अद्य बहूनि रूपाणि स्त्रीलिङ्ग दीर्घ ईकारान्त स्त्रीलिङ्गरूपे एव अहं गृहपाठरूपेण दत्तवती अभ्यासरूपेण भवतु इति. धन्यवादः भगिनि. माधवी भगिनी गतवर्गे किञ्चित् कठिनः आसीत् किल, अभ्यासं कृतवती वा? अस्तु, भवती पठति वा? भवती पठति वा नारी आरम्भतः?
नमस्कारः भगिनी, ऐ वाज़ सारी बिट लेट.
अस्तु, इदानीं माधवी भगिनी पठति, अनन्तरं भवान् पठतु.
नारी नारीं द्वितीयाविभक्ति
अत्र अत्र एकनिमिषः अत्र दीर्घ ईकारः अस्ति, तत् सम्यक्तया सूचयतु.
नारी
आम्
द्वितीयाविभक्ति एकवचन नारीं.
नारीं
द्वितीयाविभक्ति बहुवचन नारीः.
आम् आम्.
कादम्बरी द्वितीयाविभक्ति एकवचनं कादम्बरीं. द्वितीयाविभक्ति बहुवचन कादम्बरीः.
कादम्बरीः
कादम्बरीः. जननी द्वितीयाविभक्ति एकवचन जननीं. द्वितीयाविभक्ति बहुवचन जननीः.
समीचीनं.
कौमुदी द्वितीयाविभक्ति एकवचन कौमुदीं. द्वितीयाविभक्ति बहुवचन कौमुदीः.
समीचीनं. धन्यवादः भगिनि. धन्यवादः भगिनि.
आं भगिनि. सो नेक्स्ट् वन् रैट्.
आम् आम् आम्.
Okay, नर्तकी नर्तकीं नर्तकीः. पौत्री पौत्रीं पौत्रीः. लेखनी लेखनीं
लेखनी
लेखनीः लेखनीं लेखनीः.
समीचीनम्.
अङ्कनी अङ्कनीं अङ्कनीः. मशी मशी मशीं मशीः. मातामही मातामही मातामहीं
मातामहीं मातामहीः
मातामहीं मातामहीः.
समीचीनम्.
नलिनी नलिनीं नलिनीः मानिनी मानिनीं मानिनीः शङ्करी शङ्करीं शङ्करीः सरस्वती सरस्वती सरस्वतीं सरस्वतीः गृहिणी गृहिणीं गृहिणीः
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 आं समीचीनं बहु समीचीनम् इदानीम् अभ्यासरूपेण सुलभं भवति
No, no, I think these are basically they follow same thing, so that's the
परन्तु परन्तु मिश्रण अभ्यासम् अस्ति चेत् किञ्चित् कठिनः भवति आम् तस्मिन् विषये सम्यक्तया स्मरणीयम्
आं भगिनि अद्य अहं जानामि
अस्तु समीचीनं समीचीनं पृथक्तया पृथक्तया अभ्यासं कुर्मः चेत् समीचीनमेव भवति साधारणतया मामपि अहमपि तादृशमेव चिन्तयामि परन्तु मिश्रण अभ्यासम् अस्ति चेत् किञ्चित् कठिनः भवति तस्मिन् समये सावधानेन चिन्तयित्वा वदनीयम् धन्यवादः महोदय अस्तु
धन्यवादः
अस्तु
भगिनि can we say that pratyayah dvayam karma padam madhye bhavati
pragati bhagini kila
am am
punah vadatu bhagini aham
the pratyayah
मध्ये न भवति किल भगिनि प्रत्ययः पदस्य मध्ये न भवति अन्ते एव भवति प्रत्ययः सफिक्स् किल
पठित्वा द सेण्टेन्स् रामः पाठं पठित्वा निद्रां करोति सो द पाठम् एण्ड् निद्राम् आर् टु कर्मपदम् एण्ड् इन् बिट्वीन् टु वि हेव् पठित्वा दट् इस्
भगिनि भवती एतद्विषये वदति वा बालिकां पाठं पठन्ती एव निद्रां कृतवती एतस्मिन् वाक्यस्य विषये भवती किं भवत्याः प्रश्नः किं कः पुनः वदति वा अस्तु अत्र अनेकान् विषयान् वयं ज्ञातुम् आवश्यकम् अस्ति इदानीं वदामि बालिका पाठं पठन्ती एव निद्रां कृतवती अत्र प्रगति भगिनी भवती एव उत्तरं ददातु बालिका पाठं पठन्ती एव निद्रां कृतवती अत्र एतस्मिन् वाक्ये क्रियापदं कति क्रियापदानि सन्ति कति क्रियापदानि सन्ति can we split बालिका पृथक्तया वदामः बालिका पाठं पठति एकं वाक्यमस्ति बालिका पाठं पठति इति एकं वाक्यमस्ति अन्यवाक्यमस्ति बालिका निद्रां करोति इति अथवा कृतवती इति अन्यवाक्यम् अस्ति वाक्यं द्वौ वाक्यं मिलित्वा वाक्यद्वयं मिलित्वा बालिका पाठं पठति एव निद्रां कृतवती इति वदामः पुनः वदामि सर्वे सम्यक्तया सावधानेन शृण्वन्तु बालिका पाठं पठति इति एकं वाक्यम् प्रथमवाक्यमस्ति बालिका पाठं पठति अग्रिमवाक्यम् अस्ति बालिका निद्रां करोति अथवा कृतवती. प्रथमवाक्ये बालिका पाठं पठति, पठति इव क्रियापदम्. अग्रिमवाक्ये करोति अथवा कृतवती एव द्वितीयक्रियापदम्. मिलित्वा वाक्यद्वयं मिलित्वा कथं लिखामः? बालिका पाठं पठन्ती एव निद्रां कृतवती. अत्रापि क्रियापदं द्वयम् अस्ति वा प्रगति भगिनि? अत्र क्रियापदं द्वयम् अस्ति वा?
Only one.
अन्य क्रियापदं कुत्र अस्ति?
पठन्ति इज प्रत्ययरूप प्रत्यय इज एडेड टू द फर्स्ट
क्रियापद. अत्र पठति इज चेंज टू पठन्ति. इट इज अ क्रियापद रूपम् अस्ति, क्रियापद रूपम् अस्ति विद द यूज ऑफ प्रत्ययः. The form is changed. Patati has changed to patanti. Atra patati shabdasya balika patam patati iti vakyam asti kila. Patati shabdasya karma padam kim?
Patam.
Patam. Karoti anya vakyam asti balika nidram karoti iti anya vakyam asti. करोति इति क्रियापदस्य कर्मपदं किम्?
निद्राम्.
आम्, अत्र पाठम् इति शब्दः, पाठम् इति शब्दः पठति शब्दस्य कर्मपदम्, निद्राम् इति कर्मपदं करोति शब्दस्य कर्मपदम्. अत्र पठन्ति करोति, पठन्ति कर्मपद क्रियापदरूपं भवति, कृतवती क्रियापदं भवति. अत्र पठति इति शब्दः पठन्ति इति परिणामं भवति. अत्र द वर्ब इस् चेञ्जिङ्ग् टु नौन्. If it's a pullinga shabdah, patan iti bhavati. Idani balakaha patam patan iti bhavati. Balakaha asti chet patan iti bhavati. Balika asti kila ataha patanti iti asti. Atra napumsakalingaha kartrupadam napumsakalingaha bhavati chet patat iti bhavati. अस्तु, इदानीं विषयः बहु अधिकम् आसीत्, सरलतया स्वीकुर्मः. अस्तु, ऐ विल् ट्रै टु रैट् हियर्. अत्र लेखितुं प्रयत्नं करोमि.
Balika, can you make it a little bit bigger?
Yes, yeah, one second, I'll just finish writing and I will make it big. One second, Bagini. समीचीनमस्ति वा? दृश्यते किल?
धन्यवादः.
एकनिमिषः लिखित्वा अहं वदामि. अस्तु, इदानीं सर्वे दृश्यते वा? दृश्यन्ते वा?
आं भगिनि.
आं, बालिका पाठं पठति. बालिका अन्तिमवाक्यं दृश्यन्तु, दृश्यन्तु सर्वे. बालिका पाठं पठन्ती एव निद्रां कृतवती. एतद् वाक्यम् अहं वाक्यं द्वयं रूपेण कृतवती, लिखितवती. बालिका पाठं पठति, बालिका निद्रां कृतवती. अत्र पठति इति एकं क्रियापदम् अस्ति. अनन्तरं कृतवती इति अन्यक्रियापदम् अस्ति. क्रियापदं द्वयम् अस्ति. अस्तु, अत्र किं सावधानेन पठामः चेत्, पठति शब्द क्रियापदस्य कर्मपदं पाठम्. आम्, पाठम्. कृतवती इति क्रियापदम् अस्ति. कृतवती इति क्रियापदस्य कर्मपदरूपं निद्राम् इति भवति. पाठं निद्राम् इति कर्मपदरूपं भवति. तदेव सावधानेन वयं ज्ञातुं प्रयत्नं कुर्मः. मिलित्वा, वाक्यद्वयं मिलित्वा कथं भवति? बालिका पाठं पठन्ती एव निद्रां कृतवती. अत्र पठति इति शब्दः, प्रथमवाक्ये पठति इति शब्दः अस्ति किल, तद् क्रियापदम् अस्ति किल, तत् क्रियापदं पठन्ती इति परिणामम् अभवत्. पठन्ती रूपं शत्रन्तरूपं, क्रियापदरूपम् अस्ति, तस्य परिणामं पठन्ती इति भवति. अतः क्रियापदरूपं पठन्ती अस्ति, अन्यक्रियापदमस्ति कृतवती इति. सर्वे अवगतवन्तः वा? प्रश्नः अस्ति वा? पृच्छन्तु कृपया.
अवगच्छामि भगिनि.
उदाहरणमपि ददामि, अग्रे पठामः, पुनः एकवारं पठामः, किञ्चित् अवगमनं सुलभः भवति.
Bhagini, I have one question, right? The meaning of the last statement, right? Balika patam patanti eva nidram kritavati. The English meaning is when girl was studying, she fell asleep or something like that?
Balika, the girl, the girl did two actions at the same time. While reading, she slept.
While reading, right? Because...
Yes, while like reading... Reading, slept. While reading, she went to sleep.
Yeah, I think something like that, right?
Yes, yes. Artha ha saka samichinam.
Okay.
When we combine, here the point is, the point is to see how to combine. For example, if you see in this sentence, okay, Ramaha patam patitva nidram karoti. What's happening here? Ravi Mahodhya, can you please participate here?
Yeah.
Ramaha patam patitva nidram karoti. Atra kim artha katam bhavati?
Rama, after reading, he slept.
Samichinam, bahu samichinam. After reading, he slept.
Yeah.
After iti, yeah. Artha avashyakam asti chet, tva iti prateha, yeah, upayogam kurmaha.
Correct.
Samichinam, bahu samichinam. Agrima vaki. Balakaha hastam prakshalya bhojanam karoti.
Yeah, after washing his hand, he took his lunch.
Samichinam. After iti, yeah, artha asti chet, api lyap prateha upayogam kurmaha. परन्तु रूपभेदः एव अस्ति.
ओके,
समीचीनं वा? अवगच्छति किल? आफ्टर् इति अस्ति. अस्तु, अनन्तरं छात्राः पाठं पठितुं विद्यालयं गच्छन्ति. अत्र अर्थः कः?
Yeah, I think I a bit confused here, but anyway, let me try. Student student going to school to study? Or is it chatra patam patitum vidyalayam gachati? Means he goes to school to study.
Tadeva samichinam.
Is it correct? Or because I was previous class I was thinking, is it something like chatram patam patitum means after he read then he go to school, something like that?
No. For the after, for the meaning, to say
today
after.
Clarified last just now.
Thank you very much for I'm glad. So to have the sense of after doing this, after doing that,
correct.
For that we use tva prateha atva lya prateha.
Okay.
Patitum meaning students are going to school to read.
To read, yeah.
To read, to eat, to drink, to play, iti artha avashyakam asti chet tumun pratyaha upayogam kurmaha.
Amma.
Astu. Aham bhojanam khaditum alpahara gruham gatavan.
Yeah, to eat lunch.
I went to a restaurant.
Then
to eat, to play. Balakaha kriditum kridanganam gatavan.
Gatavan, yeah.
Then kimartam gatavan?
To play.
Kriditum gatavan.
Kriditum gatavan.
Patitum gatavan. इति अर्थः आवश्यकम् अस्ति चेत् तुमन् प्रत्ययः उपयोगं कुर्मः. अत्र हियर् पठितुं गच्छन्ति, यु नो हियर् द मीनिङ्ग् आफ् द प्रत्ययः इस् चेञ्जिङ्ग् रैट्. वि आर् यूसिङ्ग् प्रत्ययः टु चेञ्ज् द वे वि वाण्ट् टु कन्वे द सेण्टेन्सस् रैट् रैट्. सो इन् द फोर्त् सेण्टेन्स् वि हेव् टु थिङ्ग्स् दट् आर् हेपनिङ्ग् अट् द सेम् टैम्. वाट् आर् द टु थिङ्ग्स्? बालिका, द गर्ल्
Girl,
is reading and sleeping. Yeah.
Yes.
While reading, she is also sleeping.
Correct.
So, how to say that kind of sentences, for that we use Shatru Pratyaya.
Yeah.
For example, in the first sentence, Ramaha Patam Patitva Nidram Karoti. Patitva. Patitva means after reading only, the action of sleeping is coming. But here, while reading, sleeping is also happening.
Together.
The action together. That's what we mean as kriya dvayam samana samaye bhavati.
Kriya dvayam samana
samaye bhavati. It's happening at the same time. Yeah. Then we use shatru pratyaha.
Yeah.
Now we are only focusing on understanding what it is. We are not going in deep about how to use them. What is the grammatical point of view? We are not learning in deep about all of those. We are just trying to understand only the meaning. Okay?
Bhagini, patanti, there it is written like that in comes before ti.
Yes.
Whereas in when we say balaha, balikaha patam patanti, there we that in will come in between, right?
I get your question here. Here, one second, I'm writing here. Whatever you're asking me, I will write here so that we can understand it better. अस्तु, किमर्थं च अहं न लिखितुं शक्नोमि. अत्र पठन्ति बालिका पठन्ति, बालिका खादन्ति, बालिकाः खादन्ति, बालिकाः पठन्ति इति अस्ति चेत् क्रियापदरूपमेव भवति. परन्तु अत्र तादृशसन्दर्भे ह्रस्व इकारः भवति. अत्र दीर्घ इकारः भवति. दीर्घ इकारः अस्ति चेत् शत्रुप्रत्ययः रूपम् इति वयं नूतनविषयः अस्ति. दीस् आर् आल् दि वेरि मैन्यूट् थिङ्ग्स् दट् वि विल् दट् वि यु नो वि हाव् टु लर्न् बै लर्निङ्ग् न्यू कान्सेप्ट्स्. यस्
दट्
इस् अ वेरि गुड् अब्सर्वेशन्. दट् इस् वेरि गुड् अब्सर्वेशन् अण्ड् ऐ वाण्ट् टु टेल् आफ्टर् सम् टैम् बिकास् इट्स् टु मेनि थिङ्ग्स् टु रिमेम्बर्. But good that you asked, Bhagini. How will you see the difference? For example, Balikaha Patanti and Balikaha Patam Patanti iti Shatru Rupam Asti Chet, Bedaha Kaha? Balikaha Patanti Asti Chet, Harasva Ikaraha Bhavati, Atra Shatru Rupam Asti Chet, Dirga Ikaraha Bhavati.
Haan, Bhagini. Avagacham.
When we are in shatru pratyaya, when the kriya rupam is changing into a noun form, we have pullinga shabdaha, strilinga shabdaha, napumbasakalinga shabdaha api asti. Tadrasham idanim vayam agrena gachamaha, sarlataya svikurmaha, vakyam sarlataya svikurmaha. Astu agre patamaha. अहं चिन्तयामि पुनः एकवारम् अभ्यासः इति वाक्यानि अस्ति किल, गतवर्गे वयं पठितवन्तः, पुनः एकवारं पठामः सम्यक्तया अवगमनार्थम्. अस्तु, पद्मिनी भगिनी पठति वा?
आं भगिनि. अभ्यासः आवरणे सूचितानां शब्दानां उचितरूपाणि वित्ते स्थले लिखत. भवती विषयं ज्ञात्वा अग्रे पठतु.
अस्तु, समीचीनम्. अत्र विषयः इति कीदृशशब्दः?
विषयः अकारान्त पुल्लिङ्गशब्दः.
कर्मपदरूपेण कथं, द्वितीयाविभक्तिरूपेण कथं भवति?
विषयं भवति.
समीचीनं. भवती विषयं ज्ञात्वा अग्रे पठतु. अत्र क्रियापदं कुत्र अस्ति?
पठतु.
पठतु. क्रियापदरूपं कुत्र अस्ति?
लोट्लकार.
हा हा, समीचीनं. एकनिमिषः सावधानेन शृणोतु. क्रियापदं किम् अत्र?
पठतु.
समीचीनं. क्रियापदरूपं, क्रियापदरूपम् अस्ति वा एतस्मिन् वाक्ये? रूपं नाम जानाति इति शब्दः अस्ति किल, जानाति. अत्र वाक्यद्वयरूपेण पश्यामः. भवती विषयं जानाति. वि हाव् टु लर्न् टु स्प्लिट्, वि हाव् टु ट्रै टु स्प्लिट् वन् सेण्टेन्स् इन् टु सिम्प्लर् सेण्टेन्सेस् and then militva militva if you write one sentence it will be like this. There you will see bhavati vishayam janati, bhavati agre patatu iti vakya dvayam svikarotu. Vakya dvayam prithak prithak karotu. अस्तु, भवती विषयं जानाति इति शब्दः क्रियापदम्.
जानाति क्रियापदम्.
अग्रिमवाक्ये
पठतु क्रियापदम्.
पठतु अपि क्रियापदं. मिलित्वा वदामः चेत् भवती विषयं जानाति इति शब्दः त्वान्तरूपेण कथं भवति?
त्वान्तरूपं ज्ञात्वा भवति.
ज्ञात्वा, जानाति इति शब्दः ज्ञात्वा इति भवति किल. क्रियापदं क्रियापदरूपम् अस्ति किल, जानाति क्रियापदमेव किल. ज्ञात्वा इस् अ क्रियापदरूपम्. क्रियापदरूपं, यस् यस्. जानाति इस् अ क्रियापदं, ज्ञात्वा इस् अ क्रियापदरूपम्.
ओके, सो परिवर्तनं
परिवर्तनेन परिवर्तनेन ज्ञात्वा भवति प्रत्ययस्य योजनेन ज्ञात्वा भवति अतः अत्र भवति विषयं ज्ञात्वा अग्रे पठतु इति वाक्यमस्ति एतस्मिन् वाक्ये पठतु इति शब्दः क्रियापदं भवति क्रिया अस्ति क्रियापदरूपं कुत्र अस्ति चेत् ज्ञात्वा इति क्रियापदरूपम् अस्तु भवती विषयं ज्ञात्वा आफ्टर् नोयिङ्ग् द फ्याक्ट् और् आफ्टर् नोयिङ्ग् द म्याटर् अग्रे पठतु लर्न् ऐ मीन् गो टु रीड् फर्दर् यस् अस्तु अत्र कर्मपदं विषयम् अस्ति किल कर्मपदं विषयम् अस्ति समीचीनं तस्य क्रिया भवती विषयं जानाति इति अस्ति किल सुलभ सरलवाक्यं जानाति क्रियापदस्य कर्मपदं किम्
विषयम्
जानाति पदस्य क्रियापदं कर्मपदमेव विषयम् कर्मपदं कस्य कर्मपदं जानाति क्रियापदस्य कर्मपदं विषयम् वयम् ऐ टेलिङ्ग् दिस् स्पेसिफिकलि इस् देर् मे बि टू क्रियापदम् इन् अ सेण्टेन्स् बट् वी हेव् टु लर्न् टु ऐडेण्टिफै द कर्म फूस् कर्मपदं फार् एक्साम्पल् इन् द फस्ट् सेण्टेन्स् इस् द मोस्ट् सिम्प्लेस्ट् सेण्टेन्स् ऐ विल् टेक् अनदर् सेण्टेन्स् हियर् लुक् अट् सेण्टेन्स् एकनिमिषः ओके लुक् अट् दि सेण्टेन्स् भक्त 14 Look at the sentence 14 here.
Bhaktaha.
Can you read that sentence? Okay, I'm just enlarging it. One second. Astu. Bhaktaha. Read the sentence 14, please.
Bhaktaha. Natraha patan pujam karoti.
Astu. Sarala vakyam. Vakya dvayam rupena prithaktaya kura lekitum prayatram kurmaha.
भक्तः मन्त्रः पठति
मन्त्रं पठति इति एव स्वीकरोतु
मन्त्रं पठति भक्तः पूजां करोति
सरलवाक्यम् अस्ति कार्यद्वयं भवति भक्तः मन्त्रं पठति अत्र पठति इति क्रियापदं भक्तः इति कर्तृपदं किल मन्त्रम् अस्ति मन्त्रं कर्मपदं भवति कस्य कर्मपदं पठति इति क्रियापदस्य कर्मपदं मन्त्रम् तादृशम् अग्रिमवाक्यं किम् अस्ति भक्तः पूजां करोति इति अस्ति अत्र क्रियापदं किं
करोति
तस्य कर्मपदं किं
पूजा
समीचीनम् अतः एतस्मिन् वाक्ये कर्मपदं द्वयम् अस्ति पठति पठन् इति परिणामं भवति भक्तः न तुमुन् नास्ति अत्र शत्रुप्रत्ययः शत्रुप्रत्ययः रूपं सर्वे सरलतया कृपया सावधानेन स्मरन्तु शत्रुप्रत्ययः means the kriya padam will change its form okay yeah. kriya padam will change its form and its form is in three types it has pullinga shabdah strilinga shabdah and napumsakalinga shabdah
okay
udaharanartham patati iti kriya padam asti kila tasya parivartana shatru pratyayasya parivartanartham patan iti bhavati patan nama pullinga shabdah asti chet patan स्त्रीलिङ्गशब्दः अस्ति चेत् पठन्ति नपुंसकलिङ्गशब्दः अस्ति चेत् पठत् इति भवति
भक्तः मन्त्रं पठन् पूजां करोति पुल्लिङ्ग
किमर्थं भगिनी किमर्थं पुल्लिङ्गः
पठन् मन्त्रः मन्त्रं पठन् पठन्
किमर्थम् अत्र पठन् अस्ति
प्रत्यय शत्रन्त प्रत्यय पठन् पुल्लि पठन् एव पुल्लिङ्ग पुल्लिङ्गशब्दे भवति
आम् भक्तः पुल्लिङ्गशब्दः अस्ति
ओ
अतः पठन् इति शब्दः अपि पुल्लिङ्गः भवति पुल्लिङ्गं भवति उदाहरणार्थम् अन्य उदाहरणम् अहं ददामि अत्रैव पश्यतु भगिनी बालिका चत्वारः चतुर्थ वाक्यं स्वीकरोतु अत्र बालिका पाठं पठन्ति एव निद्रां कृतवती इति वाक्यम् अस्ति किल अत्र पठन्ति इति अस्ति किमर्थम् रूपम् अत्र अस्ति शतन्त्रप्रयोगः अत्र भवति समीचीनं किमर्थं पठन् नास्ति किमर्थं पठन्ति अस्ति
बालिका स्त्रीलिङ्ग अस्ति प्रत्यय उपयोगं कुर्मः
आम् समीचीनम् अग्रिम उदाहरणं ददामि इदानीं बालिका इति स्थाने वनम् इति पदं स्वीकरोतु अर्थः समीचीनं न भवति उदाहरणार्थम् अभ्यासार्थम् अहं ददामि वनम् इति शब्दः अस्ति स्वीकरोतु अस्ति चेत् अत्र पठन्ति इति स्थाने समीचीनं समीचीनं पुनः एकवारं स्मरणार्थं पुनस्मरणार्थं वदतु कृपया
बालकः अस्ति चेत् पठन् भवति बालिका अस्ति चेत् पठन्ती भवति वनम् अस्ति चेत् पठति भवति
समीचीनं बहु समीचीनम् अस्तु
आं भगिनि
अत्र एतस्मिन् वाक्ये एव क्रियाद्वयं भवति कर्मपदमपि द्वयं भवति तद् किं किं कार्यम् अस्ति इति वयं ज्ञातुम् अवगन्तुं प्रयत्नं करणीयम्
आं भगिनि
अस्तु अत्र पश् एकनिमिषः या ऐ हेव् रिटन् इट् हियर् केन् यु जस्ट् सी दिस् पुल्लिङ्गशब्दं पठन् इति भवति आम् शत्रन्तरूपं शत्रन्तरूपं
पुल्लिङ्गं पठन् भवति स्त्रीलिङ्गं पठन्ति भवति नपुंसकलिङ्गं पठन्
समीचीनम् इदानीम् अहम् अन्य उदाहरणं ददामि गच्छति इति अस्ति चेत् शत्रन्तरूपेण कथं भवति
गच्छन्ती स्त्रीलिङ्गं गच्छत् नपुंसकलिङ्गं
बहु समीचीनं समीचीनं तादृशमेव
आं भगिनि
समीचीनम् अस्तु अस्तु भगिनी पुनः एकवारं प्रथमवाक्यमेव करोति वा अत्र मम अहं पृच्छामि भवती उत्तरं वदतु कृपया भवती विषयं ज्ञात्वा अग्रे पठतु इति अस्ति अत्र क्रियापदं किं
पठतु ज्ञात्वा
क्रियापदं पठतु क्रियापदरूपं
जानाति
रूपं ज्ञात्वा जानाति इति अस्ति चेत् क्रियापदमेव ज्ञात्वा इति परिणामम् अभवत् किल अतः क्रियापदरूपम् इति अस्तु कर्मपदं किं
कर्मपदं विषयं
विषयं कस्य कर्मपदम् ज्ञात्वा इति क्रियापदरूपेण अस्ति तस्य कर्मपदं विषयं समीचीनम् अस्तु अत्र पठतु इति क्रियापदस्य कर्मपदम् अस्ति वा
न भगिनि
अत्र नास्ति कर्मपदं केवलम् एकमेव एतस्मिन् वाक्ये कर्मपदं केवलम् एकमेव समीचीनं समीचीनम् अग्रे पठति वा
छात्राः प्रश्नं पृष्ट्वा विषयं जानन्ति
समीचीनम् अत्र सावधानेन पठामः छात्राः बहुवचनरूपम् अस्ति आकारान्त पुल्लिङ्गशब्दः बहुवचनरूपम् अतः एव क्रियापदं किं
जानन्ति
जानन्ति तदेव बहुवचनरूपेण अस्ति समीचीनम् अत्र क्रियापदरूपं किं
पृष्ट्वा
पृष्ट्वा समीचीनं कर्मपदं किं
प्रश्नं
प्रश्नं प्रश्नं कस्य कर्मपदं
पृष्ट्वा
पृच्छति इति क्रियापदम् अस्ति परिणामरूपेण पृष्ट्वा इति अस्ति तस्य कर्मपदं प्रश्नं भवति प्रश्नं भवति अस्तु समीचीनं जानन्ति इति क्रियापदम् अस्ति किल तस्य कर्मपदं किं
विषयं
समीचीनम् अवगच्छति वा इदानीम्
आम् भगिनि
समीचीनं समीचीनम् अस्तु अस्तु अग्रे अपि इतोपि पठतु कृपया
बालिका लेखनीं पातयित्वा रोदनं कृतवती
समीचीनं पातयित्वा नाम आफ्टर् पुटिङ्ग् इट् डौन् इट् फेल् डौन् पतति इति शब्दस्य पातयति इति शब्दस्य त्वान्तरूपं पातयित्वा इति भवति अस्तु बालिका क्रियापदं भगिनि बालिका लेखनीं पातयित्वा रोदनं कृतवती इति वाक्यं क्रियापदं किं
कृतवती
समीचीनं क्रियापदरूपं किं
पातयित्वा
कर्मपदं किं
लेखनीं
लेखनीं कस्य क्रिया कर्मपद
पातयित्वा क्रियापदस्य
पतति पतति इति क्रियापदस्य कर्मपदं लेखनी अनन्तरं कृतवती क्रियापदस्य
कृतवती क्रियापदस्य कर्मपदं रोदनं
बहु समीचीनम् अवगतं वा
अवगच्छामि
गतवर्गे अनेकाः विषयाः सन्ति किल एकस्मिन् समये एव सर्वं न ज्ञातु अवगन्तुं शक्नुमः अतः पृथक्तया पृथक्तया पुनः पुनः एतद्विषये एव अहम् अभ्यासं कर्तुं प्रयत्नं कृतवती
सुलभः अस्ति
अस्तु भगिनि माधवी भगिनि सिङ्गपूर् माधवी भगिनि
धन्यवादः
भगिनि धन्यवादः
आं भगिनि
भगिनि अग्रे पठति वा कृपया
आं भगिनि चत्वारः
क्षम्यतां चतुर्थवाक्यं
ते पत्रिकां पठित्वा विषयं जानन्ति
अस्तु समीचीनम् अत्र क्रियापदं किम्
जानन्ति
समीचीनं जानन्ति इति क्रियापदस्य कर्मपदं किम्
विषयं
समीचीनम् क्रियापदरूपं किम्
पठित्वा
समीचीनं तस्य पठित्वा इति क्रियापदं कथं भवति
न जानामि भगिनि पठति
इति क्रियापदं भवति त्वान्तरूपेण त्वान्तरूपं प्रयोगः भवति चेत् पठित्वा इति भवति किल पठति इति क्रियापदं भवति पठित्वा क्रियापदरूपं भवति पठति इति शब्दस्य कर्मपदं किम्
पत्रिका
कर्मपदम् समीचीनमेव भवत्याः उत्तरं समीचीनमेव कर्मपदरूपेण वदतु
कर्मपद
पत्रिकां
पत्रिकां
तादृशमेव अस्तु इदा भगिनि जानन्ति शब्दस्य कर्मपदं किम्
विषयं
विषयं समीचीनं भवती सर्वं जानाति समीची सम्यक्तया उत्तरमपि दत्तवती पुनः अभ्यासार्थम् अहं पुनः वदामि
चिन्ता
मास्तु जानन्ति इति क्रियापदस्य कर्मपदं विषयं विषयं कर्मपदं किल कर्मपदं तस्य विभक्तिः का का विभक्तिः विषयम् इति शब्दः
द्वितीया विभक्ति
आम् समीचीनं कर्मपदं सर्वदा द्वितीया विभक्तिरु एव स्थानं भवति समीचीनं प्रथमविभक्तिः कथं भवति विषयं शब्दस्य
विषयः
आम् समीचीनं विषयः एव भगिनी समीचीनमेव प्रथम वाक्यं पश्यतु कृपया भवती विषयः ज्ञात्वा अग्रे पठतु इति अस्ति किल आवरणे किम् अस्ति विषयः अस्ति प्रथमविभक्तिरूपे रूपमेव अत्र अस्ति तत् कर्म द्वितीयविभक्तिरूपेण लिखामः चेत् विषयम् इति भवति अत्र विषयम् इति उत्तरमस्ति अहं पृष्टवती प्रथमविभक्तिरूपं कथं भवति इति सुलभः वा अवगतवती वा
अवगच्छामि भगिनि
या दर सोमरि लेयर्स् आफ् अण्डर्स्टाण्डिङ्ग् रैट् ऐ अण्डर्स्टाण्ड् भगिनि
आं भगिनि
अस्तु पत्रिका इति कीदृशशब्दः पदपरिचयं करोति वा
पत्रिका आकारान्त स्त्रीलिङ्गशब्दः
विभक्तिः का
पत्रिका प्रथमा विभक्ति
आम् उपकर्मपदरूपम्
पत्रिकाम्
आम् तावदेव समीचीनम् पठति इति शब्दस्य कर्मपदं पत्रिकां जानन्ति इति क्रियापदस्य कर्मपदं विषयम् अतः एतस्मिन् वाक्ये कर्मपदं द्वयम् अस्ति पत्रिकामपि कर्मपदम् अस्ति विषयमपि कर्मपदम् अस्ति
अवगच्छामि
परन्तु कस्य कर्मपदं नाम विषयम् इति शब्दः जानन्ति क्रियापदस्य कर्मपदं पत्रिकामिति कर्मपदं पठति इति शब्दस्य क्रियापदस्य कर्मपदम् समीचीनम् अस्तु अग्रे पठतु कृपया
माता पाकं समाप्य माता पाकं समाप्य सखी गृहं गतवती
समीचीनम् अत्र क्रियापदं किम्
गतवती
समीचीनं तस्य कर्मपदं
सखी गृहं
समीचीनं क्रियापदरूपं समापयति इति भवति अत्र समाप्य इति अस्ति
समापयति
समाप्य तस्य क्रिया तस्य कर्मपदं
पाकः
समीचीनं अत्र भगिनी गतवती इति क्रियापदस्य कर्मपदं सखी गृहम् अस्ति किल तस्य विभक्तिः का एतत् शब्दस्य विभक्तिः का
द्वितीया विभक्ति सखी गृहं
प्रथमा विभक्तिः
सखी गृहः
सरलतया स्वीकरोतु गृहम् इति शब्दः नपुंसलिङ्गशब्दः एव अतः द्वितीया विभक्तिः प्रथमविभक्तिः समानमेव भवति इदानीं वनम् इति अस्ति चेत् स्वीकरोतु कृपया अत्र तस्य स्थाने वनम् इति अस्ति चेत् द्वितीयविभक्तिः अपि वनमेव भवति प्रथमविभक्तिः अपि वनमेव भवति तादृशमेव गृहमपि अस्ति
गृहं द्वितीया विभक्ति अस्ति तस्य प्रथमा गृहम् एव
तावदेव आम् तावदेव
आं भगिनि
समीचीनम् अस्तु अग्रे पठतु कृपया
भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु.
समीचीनम्. अत्र क्रियापदं किं?
गच्छतु.
समीचीनं. तस्य कर्मपदम्
अनुसृत्य गच्छतु.
अत्र रविमहोदय सहायं करोतु. भवती भवान् जानाति चेत् सहायं करोतु.
व्यवहारं वा भगिनि?
व्यवहारं कर्मपदं भवति. सत्यमेव. कस्य कस्य नाट् नेसरलि वी शुड् हाव् टु कर्मपदम् इन् अ सेण्टेन्स्. नाट् नेसरलि
जनानां व्यवहारं न कर्मपदं नास्ति.
एकनिमिषः एकनिमिषः. ऐ वुड् लैक् टु क्लारिफै वन् पायिण्ट्. नाट् नेसरलि वी हाव् टु हाव् two karma padams, or not necessarily that every kriya padam should have a karma padam, nothing like that.
Okay.
Now we have, I think we, so Ravi Mahodaya has a clue, so can you try Mahodaya? Gachatu iti kriya padam asti.
Yeah.
Tasya karma padam kim?
It will be still vyavaharam.
न अत्र कर्मपदं नास्ति. गच्छतु शब्द क्रियापदस्य.
या बिकॉज हियर देयर इज ओनली वन.
यस
बट ओके
ओके. कर्मपदं रूपं सॉरी क्षम्यतां क्रियापद रूपं किम्?
गच्छतु.
महोदय क्रियापदम् अस्ति गच्छतु. अंगीकरोति वा? गच्छतु क्रियापदम् अस्ति. क्रियापदरूपम् अत्र किम्?
गतवान्.
सावधानेन चिन्तयतु महोदय. गच्छतु क्रियापदम् अङ्गीकरोति वा? आर् यू वित् मी? यस्. समीचीनम्. अनुसरति इति क्रियापदम् अस्ति. तद् परिवर्तनेन प्रत्ययस्य प्रयोगेन अनुसृत्य इति ल्यप् प्रत्ययः अनुसृत्य प्रयोगेन अनुसृत्य इति भवति. अस्तु. अनुसरति इति क्रियापदस्य कर्मपदं व्यवहारम्. एतस्मिन् वाक्ये कर्मपदं केवलम् एकमेव. अनुसरति इति क्रियापदस्य कर्मपदं व्यवहारम्. गच्छतु इति क्रियापदस्य कर्मपदम् अत्र नास्ति. दट्स् वै गेव् अ क्लू. नाट् नेसरी दट् एव्रि क्रियापदं शुड् हाव् अ कर्मपदम्. टु अण्डर्स्टाण्ड् ग्रामाटिकलि वि आर् ट्रैङ्ग् टु यु नो स्प्लिट् सेण्टेन्सेस् अण्ड् ट्रैङ्ग् टु गो डीप् इन् टु इट्. दट् इस् आल्. अवगतवान् वा अत्र?
आं भगिनि.
आं भगिनि.
प्रश्नः अस्ति वा?
न भगिनि.
चिन्तयित्वा अग्रिमवासरे पृच्छति वा प्रश्नाः सन्ति चेत्?
आं भगिनि.
अस्तु अस्तु. भ्रमः जातः इति अहं चिन्तयामि. क्षम्यताम्. अस्तु.
आं भगिनि. धन्यवादः.
अस्तु. राधिका भगिनि.
आं भगिनि.
अग्रे पठति वा कृपया.
भवान् सज्जनानां सः देवीं नमस्कृत्य विद्यालयं गच्छति.
अस्तु. अत्र क्रियापदं किम्?
गच्छति.
गच्छति क्रियापदस्य कर्मपदं किम्?
विद्यालयम्.
अस्तु. कर्म क्रियापदरूपं किम्?
नमस्कृत्य.
तस्य कर्मपदं किम्?
देवीं.
समीचीनं. बहु समीचीनम्. अत्र नमस्कृत्य इति क्रियापदरूपम् अस्ति किल. क्रियापदं कथं भवति?
नमस्करोति.
सः देवीं नमस्करोति. सः विद्यालयं गच्छति इति पृथक्तया वाक्यद्वयं लिखामः. मिलित्वा कथं भवति? सः देवीं नमस्कृत्य विद्यालयं
गच्छति.
अस्तु, अत्र एतस्मिन् वाक्ये कर्मपदम् एकम् अस्ति वा द्वयम् अस्ति वा?
द्वयम् अस्ति.
समीचीनं, तावदेव, बहु समीचीनं, धन्यवादः. अग्रे पठतु कृपया.
भगिनी शाटिकां प्रक्षाल्य आतपे प्रसारितवती. प्रसारितवती इस् क्रियापदम्. आतपः इस् आतपं विल् बि कर्मपदम्. आतपः इस् आतपः इस् प्रथमा विभक्ति. प्रक्षाल्य क्रियापदरूपं, तस्य कर्मपदं शाटिकाम्.
अत्र अत्र भगिनी शाटिकां प्रक्षाल्य आतपे प्रसारितवती. क्रियापदं प्रसारितवती इत्यस्ति, प्रसारितवती इति क्रियापदस्य कर्मपदं नास्ति. कुत्र अस्ति?
आतपे,
आतपे सप्तमीरूपं किल. सप्तमीरूपं किल, सप्तमी कर्मपदरूपं नास्ति किल. प्रसारितवती, क्षम्य भगिनी, चिन्ता मास्तु भगिनी, दोष वयं समीकृत्य पठामः. अहं केवलं प्रश्नः एवं पृच्छामि, प्रसारितवती इति क्रियापदं कर्मपदरूपं कथं भवति? द्वितीयविभक्तिरूपेण एव भवति किल. अन्यविभक्तिः कर्मपदरूपं नास्ति किल? सर्वदा कर्मपदं तस्य विभक्तिः कथं भवति? का विभक्तिः कर्मपदरूपं विभक्तिः का?
कर्मपदरूपं द्वितीया विभक्तिः.
सर्वदा द्वितीयविभक्तिः एव. अत्र आतपे इति सप्तमी रूपम् अस्ति, अतः तत् कर्मपदं नास्ति. किल, अतः प्रसारितवती क्रियापदं समीचीनं, तस्य कर्मपदम् अत्र नास्ति. प्रक्षालितवती अथवा प्रक्षालयति इति क्रियापदम् अस्ति, तस्य कर्मपदरूपं शाटिकां. प्रक्षाल्य क्रियारूपं प्रक्षाल्य तस्य कर्मपदरूपं शाटिकां. शाटिकां विभक्तिः का?
शाटिका स्त्रीलिङ्ग आकारान्तस्त्रीलिङ्गशब्दः.
समीचीनं, मम प्रश्नः आसीत् शाटिकाम् इति शब्दस्य विभक्तिः का?
शाटिकां मेडम्, शाटिकां द्वितीया विभक्ति.
आम्, मम प्रश्नः तदेव आसीत्. समीचीनम्, अग्रे पठतु कृपया.
अभ्यासं कर्तुं मम समयः नास्ति. न अस्ति क्रियापदम्.
समीचीनम्.
कर्तुं क्रियापदरूपं.
समीचीनम्.
तस्य कर्मपदम् अभ्यासम्.
अभ्यासं, समीचीनं, बहु समीचीनम्.
एकम् एव अस्ति.
किम्
कर्मपदम्? एकम् अस्ति.
आम्, समीचीनम्, एतस्मिन् वाक्ये कर्मपदम् एकमेव अस्ति. समीचीनम्, अभ्यासं कर्तुं मम समयः नास्ति. नास्ति इति शब्दस्य कर्मपदम् अस्ति वा? नास्ति. समीचीनं, समीचीनम्, अग्रे पठतु कृपया.
भक्तम् अनुग्रहीतुं ग्रहीतुं देवः भूलोकम् आगतवान्. आगतवान् क्रियापदं. भूलोक तस्य क्रिया कर्मपदं भूलोकम्. अनुग्रहीतुं क्रियापदरूपं. तस्य कर्मपदं भक्तम्.
आम्, समीचीनं, बहु समीचीनम्. एतस्मिन् वाक्ये कर्मपदं कति कर्म कर्मपदं
द्वयमस्ति
द्वयमस्ति भक्तं भक्तमपि अस्ति भूलोकमपि अस्ति समीचीनम् आम् धन्यवादः भगिनी
देवः कर्तृपदमस्ति
आम् 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 आम्
Begin one question, right? Here, Samayaha, Samayaha actually is a Prathama Vibhakti. As per the rule, it cannot be Karma Padam, right? But if you see in reality, right, Samayaha Nasti means what is not there, Samaya is not there. That means time is not there. So it has to be Karma Padam, right? As per the grammatic, if you take the sentence,
yes,
Samayaha Nasti, which is not there, Samaya is not there, something like that, right? So
yeah, you're right. I was about to touch that point, but again it will elaborate into another class, so I thought I'll just skip that point. Okay, Mahodhya, at the end of the class, since almost it's time, I'm just explaining, last week we did all of this, right?
Yes.
We did we finished all these exercises from 1 to 26. There are 26 sentences, 25, yeah. There are 25 sentences. We did all of this. What do you think we did last week? Anybody can answer. Yeah, you know, whoever feels they know the answer, you can.
We did only Karma Padam. Karma Padam. Dvitiya Vibhakti only we did.
Yeah. What we did was, whatever was there in the brackets, we changed into Karma Padarupam.
Yes.
Vishayam. Prashnaha Prashnam. Pataha Patan. Kataha Kataha. We just learned, just the literally, we changed into Karma Padarupam. That's all. Again, this week, why are we repeating the same thing is, we have so much to understand just in the first four sentences about the Pratyaha, and why are they giving here? You know, if it's only just Vishayaha, we have to change to Vishayam, Prashnaha, we have to change to Prashnam, we can only do some Abhyasam and we can go ahead, right? Why do we think we have all this is because we have to understand the structure of the sentence, and how many karma padam is there, how the if we want to change the way of telling, nyatva patitum nyatum, we have so many ways of conveying a message, right? So when we have to tell all that, how should we understand the sentence, where should the karma padam be, how should the karma, to understand some structure, we have different levels to understand further. That's why last week we just did literal understanding of how to do Karma Pada Rupam, Vishayaha to Vishayam, Prashnaha to Prashnam. This week we are trying to, you know, dig deeper into how to understand how many Kriya Padam is there.
Rupam also.
Yes, right. We are also learning how the Kriya Padam is changing to a new form of Kriya Pada Rupam with Pratyaha. And yes, how to identify Karma Padam. There are two Karma Padams in this. How to identify the Karma Padam, all that we are learning. And in the next class, we have to learn about, because without learning these things we cannot go ahead, because then yes, it will be just changing all the words like into Dvitiya Vibhakti Rupam, Chaturthi Vibhakti Rupam. It's just not that. There's some level of understanding also that we need. And regarding Ravi Mahodhya's question, we also have to understand that point. There is something called as Sakarmaka Kriyapadam, Akarmaka Kriyapadam. Nama, Sakarmaka Kriyapadam, Sakarmaka Kriyapadam will have a Karma Padam, okay? And Akarmaka Kriyapadam Nama, the Kriyapadam will not have a Karma Padam. Karma Padam Bhavitum Na Arhati.
Okay.
For example, Nasti is an example. Nasti Iti Kriyapadam is a very good example for Akarmaka Kriyapadam. Akarmaka Nama, Karmapadam Bhavitum Na Arhati. Ataha Samayaha Eva Asti. Samayam Iti Nasti Atra. It's Akarmaka Kriyapadam. Nasti Iti Kriyapadam Akarmaka Kriyapadam. Nama Karmapadam Bhavitum Na Arhati. I'm so glad, Mahodhya, you touched that point. It's very important to understand that point. But again, if I elaborate about that point, then we have to, you know, dig deeper to understand. So I thought for today this level of understanding will be good. Next week I thought I'll touch about that point. Idani gachati iti shabdah kriya padam asti kila agre purvasmin saptama vakye pashyatu sarve pashyantu gachati iti asti kila kriya padam atra karma padam gachati iti shabd kriya padasya karma padam asti va
vidyalayam
अस्ति चेत् सकर्मकक्रियापदं वा अकर्मकक्रियापदं वा समीचीनं तद् ज्ञातुम् आवश्यकम् अस्ति एतस्मिन् सन्दर्भे द्वितीयविभक्ति यदा वयं पठामः तत्र एव अकर्मकसकर्मकक्रियापदस्य विषये अपि वयं पठनस्य आवश्यकम् अस्ति किञ्चित् विस्ताररूपेण अग्रिमवासरे वयं पठामः
same concept madam atape
last last adhe saptami vibhakti
tat saptami vibhakti rupam bhavati bhagini
okay
atra samayah iti prathama vibhakti rupam asti
yes
tatra drishtva eva vadam vadam vayam vaktum shaknumah akarmaka kriya padam iti idanim kadati इति शब्दः अकर्मकः क्रिया सकर्मकः वा किमर्थम् अन्नं खादति अन्नं खादामि इति भवितुम् अर्हति किल देन् इट् इस् सकर्मकक्रियापदं तादृशमेव उत्तिष्ठति किमर्थं किमर्थं किमर्थम् समीचीनम् अस्ति उत्तिष्ठति मिलति तादृशक्रियापदानि अकर्मकक्रियापदं भवति क्रियापदानि भवति तद्विषये विस्तररूपेण पठामः अग्रिमवासरे समीचीनम् एतत् पर्यन्तं सर्वे अवगतवन्तः प्रश्नाः सन्ति वाण्डर्स्टाण्ड् एस् अ लाट् टु अण्डर्स्टाण्ड् रैट् बट् यु नो समथिङ्ग्स् वि केन् अण्डर्स्टाण्ड् बट् वेल् स्पीकिङ्ग् इट्स् सो हार्ड् टु रिमेम्बर् आल् आफ़् दीस् थिङ्ग्स् अण्ड् टाक् ऐ अण्डर्स्टाण्ड् देट् इट्स् वेरि डिफिकल्ट् यस् बट् वि हेव् टु हेव् अ लाट् आफ़् प्रेक्टिस् टु लिसन् अण्ड् रीड् मम मातृभाषा कथम् अस्ति तमिळ् वा कन्नडा वा तेलुगु वा चिन्तनं विना वयं वदामः किल किमर्थं चेत् सर्वदा वयं शृणुमः अतः सुलभः तादृशमेव वि हेव् टु लिसन् टु लाट् आफ् स्टोरीस् लाट् आफ् लेसन्स् देन् थिङ्ग्स् विल् बि सिम्पल् समीचीनं बहु समीचीनं अस्ति रोदति मिलति
मिलति केन् बि सकर्मिकं
मिलति सकर्मकक्रियापदम्
Bhagini, I have a doubt. Actually, I am not able to follow this sakarmaka, akarmaka, kriyapada.
Okay.
So, I am not able to understand what is it like.
No, Bhagini, Mahodaya asked, samayaha nasti iti asti, is the sentence there, right? Samayaha nasti. He is asking, for every kriyapadam that we saw in the past few sentences, there were this vidyalayam gacchati. सखी गृहं गतवती विषयं जानन्ति वि हेव् अ कर्मपदं फार् आल् द क्रियापदं दट् वि सा बट् हियर् नास्ति इस् अ क्रियापदं रैट् तस्मिन् पूर्वे समयः अस्ति किल समयं किमर्थं नास्ति
No, you can, samayam also you can, samayam and then samayam, both the way we can use it in the sentence you mean to say?
Yeah, wait. Samayah is a word. For it, the Dvitiya Vibhakti hi samayam is there.
Okay.
But, nasti is a kriya padam which cannot which will not have karma padam.
Okay.
So you just even
oh,
just
it will never have a karma padam.
Exactly. Yes.
Okay.
Bhavitum na arhati.
Okay.
So that in kriyapadam itself, there are two groups, which is sakarmaka kriyapadam and akarmaka kriyapadam.
Okay.
Sakarmaka kriyapadam means it will have karma padam bhavitum arhati.
Okay.
Akarmaka kriyapadam nama karma padam na bhavitum arhati.
Okay. It will never have a karma padam.
Yes,
you mean
yes,
to say?
Yes. Yes.
Okay.
Yes. So tadrisham akarmaka kriyapadam asti nasti milati uttishtati tadrisha kriyapadani akarmaka kriyapada rupani.
Okay. How we can make out like whether it is akarmaka or
vistarena agrima vasare patamaha. Just for short understanding, we were learning this.
Okay.
Agrima Vasare, we have the list of Kriyapada Rupam we have, right? All of you can have the Kriyapadam sheet in your hands. Then we can go through each one of them and we can understand that.
Okay.
For the moment, we will just learn so much. Sakarmaka Kriyapadam. Karma padam bhavitum arhati, akarmaka kriya padam nama karma padam na bhavitum arhati iti
okay.
Iti niyamaha.
Okay. Dhanyavada bhagini.
Arhati means not possible, madam.
Yes.
Na arhati means not possible.
Am.
Okay.
Bhagini.
Am.
For sakarmaka dhatu, if we want to omit the kriyapadam, we can do?
Am.
Okay.
Atreva pashya trishtavantaka kila prasaritavati, atape prasaritavati. Tadrisham bhavitum arhati. Yes.
Okay.
Agrima vasare, tadrisham eva. इतोपि वाक्यानि अपि अस्ति तद् दृष्ट्वा अनन्तरम् अकर्मक सकर्मक क्रियापदस्य विषये पठामः अस्तु सो टुडे वी डिड 10 सेंटेंसेस ऐ थिंक देयर वाज़ अ लॉट टु अंडरस्टैंड इन दैट
Yes.
I hope all of you have understood that. If you have any questions, Kripaya Sarve Chintayitva Agrima Vasare Prashnan Prichantu. Dhanyavadaha. Agrima Vasare Milamahava.
Dhanyavadaha.
Dhanyavadaha. शुभरात्रिः
शुभदिनं भगिनि
धन्यवादः भगिनि